श्रीमद्भागवत महापुराणम् सप्तमस्कन्धः अथाष्टमोऽध्यायः। ब्रह्मा आदि देवताओं द्वारा नृसिंह भगवान की स्तुति। ब्रह्मोवाच नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया संदधते व्ययात्मने। श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतो यमसुरोल्पकः तत्सुतं पायुपसृतं भक्तन्ते भक्तवत्सल। इन्द्र उवाच प्रत्यानीताः परमभवतात्रायतानस्वभागा दैत्याक्रान्तं हृदयकमलं त्वद्रुहं प्रत्यबोधि कालग्रस्तं कियदिदमहो नाथ शुश्रूषतान्ते मुक्तिस्तेषान्न हि बहुमता नारसिंहा परैक किम्। ऋषय ऊचुः त्वन्नस्तपः परममाथ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीत वपुषा पुनरन्वमंस्थाः। पितर ऊचुः श्राद्धानि नोधिबुभुजे प्रसभन्तनूजैर् दत्तानि तीर्थसमयेऽप्यपिबत् तिलाम्बु तस्योदरान्नख विदीर्णवपाद्यार्चत् तस्मै नमो नृहरयेखिल धर्मगोत्रे। सिद्धा ऊचुः यो नो गते योगसिद्धामसाधु रहार्षीद्योगतपोबलेन नानादर्पन्तन्नखैर्निर्ददार तस्मै तुभ्यं प्रणतास्मो नृसिंहः। विद्याधरा ऊचुः विद्यां पृथग्धारणयानुराधान् न्यषेधदज्ञो बलवीर्यदृप्तः स येन सङ्ख्ये पशुवद्धतस्तं माया नृसिंहं प्रणतास्म नित्यम्। नागा ऊचुः येन पापेन रत्नानि स्त्रीरत्नानि ऋतानि नः तद्वक्षः पाटनेनासान् दत्तानंद नमोस्तु ते मानव ऊचु मनवो वयन्तव निदेशकारिणो दितिजेन देव परिभूत सीतवः भवता खलस्त उपसंवृतः प्रभो करवामते किमनुषाधिकिङ्करान् प्रजापतय ऊचुः प्रजेशा वयन्ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः स एष त्वया भिन्नवक्षानुषेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः गन्धर्वा ऊचुः वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः स एष नीतो भवता दशामिमां किमुत्पथस्थक् कुशलाय कल्पते चारणा ऊचुः हरितवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः यदेष साधुरुच्चयस् तत्त्वासुरसमापितः यक्षा ऊचुः वयमनुचरमुख्या कर्मभिस्ते मनोज्ञैस्त इह दिति सुतेन प्रापिता वाहकत्वं स तु जनपरितापन् तत्कृतै जानताते नरहर उपनीता पैचतां पैचविंश किं पुरुषा ऊचुः वयं किं पुरुषास्त्वन्तु महापुरुष ईश्वरः अयं कुपुरुषो नष्टो धिकृतः साधुभिर्यदा वैतालिका ऊचुः सभासु सत्रेषु तवामलैयशो गीत्वा सपर्यां महती लभामहे यस्तां व्यनैषीदृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन् यथामयः किन्नरा ऊचुः वयमीश किन्नरगणास्तवानुगा दितिजेन वेष्टिममुनानुकारिताः भवता हरि सवृजिनो वसादितो नरसिंहनाथ विभवाय नो भव विष्णुपार्षदाऊचुहु आद्यैतद्धरिनररूपमद्भुतन्ति दृष्टन्नः शरणद सर्वलोकशर्म सोऽयन्ते विधिकर ईश विप्रशाक्तस्येदन्निधनमनुग्रहाय विद्मः। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः। ॐ सर्वं श्री